राम गीता जी का पाठ सातवां अध्याय प्रारंभ से श्लोक 10 तक। राम
वसुदेव सुतं पंचजानोरमार्जनम् देवकी परमानन्दम् कृष्णं वन्दे जगद्गुरुम् अथ सप्तमोऽध्यायः। श्रीभुवनुवाच मय्यासक्तमनः पार्थ योगं युञ्जन् मदाश्रय असंशयं समग्रं न यथा ज्ञास्यसि तत्सिनु ज्ञानं त्वेहं सविज्ञान इदं वक्ष्याम्यशेषत यद्वा त्वानेह भूयोन्य ज्ञातव्यमवशिष्यते मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः भूमिरापो नलो वायो कं मनो बुद्धिरेव च अहंकार इति यं मे भिन्ना प्रकृतिरष्टधा अपरेयमितस्पन्यां प्रकृति विद्धि मे परां जीवभूतां महाबाहो यदीदं धार्यते जगत् एतद्योनिभूतानि सर्वाणि च्युपधारय अहं कृष्णस्य जगत प्रभव प्रलयस्तथा मत्तपरतरं नान्यत् किञ्चिदस्ति धनञ्जय मयि सर्वमिदं प्रोक्तं श्रुते मणिगणा इव धसोऽहमाप्सु कौन्तेय प्रभास्मि शशि सूययो प्रणव सर्वभेदेषु शब्दके पौरुषंषु पुण्यो गन्धः पृथिव्यां च तेजस्तास्मि विभावसौ जीवनं सर्वभूतेषु तपस्यास्मि तपस्विषु बीजं मां सर्वभूतानां वेद्धिपार्थ सनातन बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामः बीजं मां सर्वभूतानां वेद्धिपार्थ सनातन बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामः वसुदेव सुतं देवं पंचजानोरमार्जनम् देवकी परमानन्दम् कृष्णं वन्दे जगद्गुरुं कृष्णं वन्दे जगद्गुरुं
हरिशरणं 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 हरे शरणम् हरि शरणम् हरि शरणम् हरि शरणम् हरे शरणम् हरि शरणम् हरि शरणम 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 हरि शरणम।